इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्याः भारत मण्डपे 25,000+ वर्षीये भारत टैक्स कार्यक्रमे सहभागं करिष्यति। अत्र अवसरे सः एकां सभां सम्बोधयिष्यति। भारत टैक्स इत्येषः विशिष्ट वैश्विक कार्यक्रमः अस्य वर्षस्य फरवरी मासस्य 14 दिनांकात् आरभ्य 17 दिनांकं यावत् भारत मण्डपे प्रचलिष्यति। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् भारतं न केवलं वैश्विक भविष्यम् अभिलक्ष्य चर्चा केन्द्रे अस्ति, अपितु एतासां चर्चाराम नेतृत्वम् अपि करोति। गतदिने नवदिल्ल्याम् एकेन संचार पटलेन आयोजिते शिखर सम्मेलने श्रीमोदी अवदत् यत् भारतेन साम्प्रतं वैश्विकस्तरे तत् स्थानम् अधिगतं यद्धि पूर्वं न कदाचित् प्राप्तम्। तेन सबलम् उक्तं यत् भारतं 14,000+ वर्षात् एव विकासपथे अग्रेसरति। दिल्ल्यां गतवासरे नवदिल्ली रेलस्थानके दुरापन्ने ससम्भ्रम पलायने 10+ जना व्रणिता जाता। अधिकारिणाम् अनुसारि अत्र प्राय कतिपय जना मृत्युम् अपि उपगता। केन्द्रीय रेलमन्त्री अश्विनी वैष्णव असूचयत् यत् व्रणिता उपचारार्थं चिकित्सालये प्रवेशिता। सम्प्रति स्थितिः नियन्त्रितास्ति। तेन उक्तं यत् घटनायाः उच्चस्तरीय समीक्षणार्थम् आदिष्टमस्ति। श्री वैष्णवः उक्तवान् यत् यात्रिभ्यः 4 विशिष्ट महाकुम्भ रेलयानानि सपदि प्रचालितानि। एतां घटनाम् अभिलक्ष्य प्रधानमन्त्रिणा नरेन्द्र मोदिना गभीरः शोकः प्रकाशितः। तेन उक्तं यत् मृतक परिवारेभ्यः तदीया संवेदना अस्ति। व्रणितानां स्वास्थ्य लाभाय अपि तेन प्रार्थना कृता। प्रधानमन्त्री नरेन्द्र मोदी प्रवर्तमान वर्षीये काशी तमिल संगमे सहभागार्थं जनाः अध्यर्थिताः। गतदिने एकस्मिन् सामाजिक संचार पटले तेन उक्तं यत् एषः कार्यक्रमः एकं भारतं श्रेष्ठं भारतम् इत्यस्याः उदात्त भावनायाः अपि पोषकः वर्तते। तत्रान्तरे तमिलनाडु काशीनगरयोः मध्ये सांस्कृतिकं बौद्धिकं च सम्बन्धं प्रवर्धमानस्य काशी तमिल संगमस्य तृतीयं संस्करणं गतवासरे उत्तरप्रदेशस्य वाराणस्याम् आरभत। केन्द्रीय मन्त्री धर्मेन्द्र प्रधान, डॉ एल मुरुगुन, मुख्यमंत्री योगी आदित्यनाथ च अस्य कार्यक्रमस्य उद्घाटनम् अकुर्वन्। प्रिया श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्न क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे यथाकालं श्रोतुं प्रभवन्ति। अन्ते क्रीडावार्तासु, 25,000+ वुमन्स प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां गतवासरे वडोदरायाः कोटाम्बी क्रीडांगणे आयोजिते द्वन्द्वे डेल्ही कैपिटल्स दलेन मुंबई इंडियंस दलं क्रीडकद्वयेन पराजितम्। अद्य वडोदरायां कोटाम्बी क्रीडांगणे एव गुजरात टाइटन्स इत्येतं दलं यूपी वॉरियर्स वुमन इत्यनेन दलेन सह स्पर्धिष्यते। वार्ताः